सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं सत्वस्थं सत्यवाचं समयनियतया साधुवृत्त्या समेतम् डम्भासूयादिमुक्तं जितविषयिगणं दीर्घबन्धुं दयालुं स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं सत्वस्थं सत्यवाचं समयनियतया साधुवृत्त्या समेतम् डम्भासूयादिमुक्तं जितविषयिगणं दीर्घबन्धुं दयालुं स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् अज्ञानध्वान्तरोधात् अगपरिहरणादात्मसाम्यावहत्वात् जन्म प्रध्वंसि जन्म प्रतगरिमतया दिव्यदृष्टिप्रभावात् निष्प्रत्योहा नृशंस्यात् नियतरसतया नित्यशेषित्वयोगात् आचार्यः सद्भिरप्रत्युपकरणधिया देववत्स्यादुपास्यः सद्बुद्धिः साधुसेवी समुचितचरितस्तत्त्वबोधाभिलाषी शुश्रूषुस्त्यक्तमान प्रणिपतनपर प्रश्नकालप्रतीक्षः शान्तोदान्तोऽनुसूयुः शरणमुपगतशास्त्रविश्वासशाली शिष्यप्राप्तः परीक्षाम् कृतविदभिमतम् तत्त्वतः शिक्षणीयः स्वाधीनाशेषसत्तास्थितियतनफलम् विद्धि लक्ष्मीसमेकम् प्राप्यम् नान्यम् प्रतीय न च शरणतया कञ्चिदन्यम् वृणीयाः एतस्मादेव पुंसाम् भयमितरदपि प्रेक्षमोज्जेस्तदाज्ञाम् इत्येकान्तोपदेश प्रथममिह गुरोर् एकचित्तेन धार्यः मोक्षोपायार्थदैवम् भवति भवभ्रताम् कस्यचित् क्वापि काले तद्वद्भक्तिप्रपत्योरधिकृतिनियमः तादृशास्यान्नियत्या सक्तासक्तारि तत्तत्पुरुषविषयतस्थाप्यते तद्व्यवस्था यच्चाहुस्तद्विकल्प समयति कतिचित् तत्फलस्याविशेषात् सानुक्रोशे समर्थे प्रपतनमृषभिः स्मर्यते भीष्टसिद्ध्यै लोकेऽप्येतत् प्रसिद्धम् न च विमतिरिह प्रेक्षते क्वापि तन्त्रे तस्मात् कैमुद्य सिद्धम् भगवति दुभरण्यास विद्यानुभावम् धर्मस्थेयाश्च पूर्वे स्वकृतिषु बहुधा स्थापयाञ्चक्रुरेवम् शास्त्रप्रामाण्यवेदीननु विधिविषये निर्विशङ्कोऽधिकारी विश्वासस्याङ्गभावे पुनरिह विदुषा किम् महत्त्वम् प्रसाध्यम् मैवम् घोरापराधैः सपदि गुरुफले न्यासमात्रेण लभ्ये शङ्कापाष्णिग्रहार्ह समयतुमुचिता हेतुभिस्तत्तदर्हैः नेहाभिक्रान्तिनाशो न च विहतिरिह प्रत्यवायो भवेदिति उक्तम् कैमुत्यनीत्या प्रपदनविषये योजितम् शास्त्रविद्भिः तस्माक्षेत्रे तदर्हे सुविदितसमये देशिकै सम्यगुप्तम् मन्त्राख्यम् मुक्तिबीजम् परिणतिवशत कल्पते सत्पलाय न्यासप्रोक्तोऽतिरिक्तम् तप इति कथितः स्वद्वरश्चास्य कर्ता अहिर्बुद्ध्योऽप्यन्ववादेत् अगणिति विशदाम् उत्तमम् गुह्यमेतत् साक्षान्मोक्षाय चासौ श्रुत इह तु मुदा बाधशङ्का गुणाड्ये तन्निष्ठौ हिन्यनिष्ठान् प्रपुरति सहितम् कोटिकोट्यम् शतोऽपि नानाशब्दादिभेदात् इति तु कथयता सूत्रकारेण सम्यक् न्यासोपासे विभक्ते यजनहवनवत् शब्दभेदादभाक्तात् आख्यारूपादिभेदश्रुत इतर समः किम् च भिन्नोऽधिकारः शीघ्रप्राप्त्यादिभिः स्यात् जगुरुति च मधूपासनादौ व्यवस्था यत्किञ्चित् द्रक्षणीयम् तदवन निपुणे न्यस्यतो किञ्चनस्य प्रस्पष्टम् लोकदृष्ट्याप्यवगमितैः प्रार्थनाद्यङ्गयोगः तस्मात् कर्माङ्गकत्वम् जपनयति परापेक्षणाभाववादः साङ्गे त्वष्टाङ्गयोग व्यवहृतिनयत षड्विधत्वोपचारः पञ्जाप्यङ्गान्यभिज्ञा प्रणिजगुरविना भावभाञ्जिप्रपत्तेः कैश्चित् सम्भावितत्वम् यदिह निगदितम् तत्प्रपत्युत्तरम् स्यात्। अङ्गेष्वङ्गित्ववादफलकथनमिह द्वित्रिमात्रोक्तयश्च प्रासस्यम् तत्र तत्र प्रणिधतति तत् सर्ववाक्यैककण्ठ्यम्। रक्षापेक्षाश्वसाह्यप्रणयवति भरण्यास आज्ञादिदक्षे दृष्टानात्र प्रपर्त्यव्यवहतिरिह तन्मेलने लक्षणम् स्यात्। गेहागत्यादिमात्रे निपततु शरणागत्य भिक्ष्योपचारात् यद्वानेकार्थभावात् भवति हि विविध पालनीयत्व हेतुः। आत्मात्मीयस्वरूपन्यसनमनुगतम् यावदर्थम् मुमुक्षोः तत्त्वज्ञानात्मकम् तत् प्रथममतविधे स्यादुपाये समेतम्। कैङ्कर्याख्ये पुमर्त्येऽप्यनुशजति तदप्यर्थनाहेतुभावात् स्वाभीष्टानन्यसाध्यावतिरिहतु भरण्यासभागोऽङ्गीभूतः। न्यासादेशेषु धर्मत्यजनवचनतो किञ्चनाधिक्रियोक्ता कार्पण्यम् वाङ्गमुक्तम् भजनवरितरापेक्षणम् वाप्यपोढम् दुःसाधेच्छोद्यमौ वा क्वचिदुपशमितावन्यसम्मेलने वा ब्रह्मास्त्रन्यायमुक्तस्तदिह न विहतो धर्म आज्ञादिसिद्धः। आदेष्टुम् स्वप्रपत्तिम् तदनुगुणगुणाद्यन्वितम् स्वम् मुकुन्दो मामित्यक्वैकशब्दम् वदति तरुचितम् तत्र तात्पर्यमोह्यम्। तत्प्राप्य प्रापकैक्यम् सकलपलदताम् न्यासतो न्यानपेक्षा प्राधान्याद्यम् च किञ्चित् प्रतयति स परम् श्रीसखे मुक्त्युपाये। स्वाभीष्टप्राप्तिहेतुः स्वयमिह पुरुषैः स्वीकृतस्यादुपायः शास्त्रे लोके च सिद्ध स पुनरुभयथा सिद्धसाध्यप्रभेदात्। सिद्धोपायस्तु मुक्तो निरवधिकदय श्रीसखः सर्वशक्तिः साध्योपायस्तु भक्त्यर्न्यसनमति पृथक् तद्वशीकारसिद्ध्यै। अत्यन्ता किञ्चनोऽहम् त्वदपचरणतः सन्निवृत्तोऽध्यनाथ त्वत्सेवैकान्तधीस्याम् त्वमसि शरणमित्यद्यवस्यामि गाढम्। त्वम् मे गोपायिता स्यास्त्वयि निहितभरोऽस्म्येवमित्यर्पितात्मा यस्मै सन्न्यस्तभार सकृत ततु सदा न प्रयस्येतदर्थम्। त्यक्त्वोपायानपायानपि परमजहन्मध्यमाम् स्वार्हवृत्तिम् प्रायश्चित्तम् च योग्यम् विगतरुणततिर्द्वन्द्ववात्याम् तितिक्षुः। भक्तिज्ञानादिवृत्तिम् परिचरणगुणान् सत्समृद्धिम् च युक्ताम् नित्यम् याचेदनन्यस्तदपि भगवतः तस्य यद्वाप्तवर्गात्। आज्ञा कैङ्कर्यवृत्तिष्वनुग गुरुजनप्रक्रियानीमि वृत्तिः स्वार्हानुज्ञातसेवा विदिशिशकने यावदिष्टम् प्रवृत्तः। कर्म प्रारब्धकार्यम् प्रपदनमहिमद्वस्तशेषम् द्विरूपम् भुक्त्वा स्वाभीष्टकाले विशदि भगवतः पादमूलम् प्रपन्नः। श्रुत्या स्मृत्यादिभिश्च स्वयमिह भगवद्वाक्यवर्गैश्च सिद्धा स्वातन्त्र्ये पारतन्त्रेऽप्यनितरगतिभिः सद्भिरास्थीयमाना वेदान्ताचार्य इत्थम् विविध गुरुजनग्रन्थसंवादवत्या विंशत्या न्यासविद्याम् व्यवृणत सुधियाम् श्रेयसे वेङ्कटेशः। संसारावर्तवेग प्रशमन सुभदृग्देशिक प्रेक्षितोऽहम् सन्त्यक्तोऽन्यैरुपाये अनुचितचरितेष्वद्य शान्ताभिसन्धिः। निःशङ्कस्तत्त्वदृष्ट्या निरवधिकदयम् प्रार्थ्य संरक्षकम् त्वा न्यस्य त्वत्पादपद्मे वरद निजभरम् निर्भरो निर्भयोऽस्मि। संसारावर्तवेग प्रशमन सुभदृग्धेशिक प्रेक्षितोऽहम् सन्त्यक्तोऽन्यैरुपाये अनुचितचरितेष्वद्य शान्ताभिसन्धिः। निःशङ्कस्तत्त्वदृष्ट्या निरवधिकदयम् प्रार्थ्य संरक्षकम् त्वा न्यस्य त्वत्पादपद्मे वरद निजभरम् निर्भरो निर्भयोऽस्मि।